तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्। त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुगमिव बन्धनान् मृत्योर्मुक्षीय मामृता। शिवश्लोक शान्तं पद्मासनस्थं शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं चकट्कं परशुमभयगं दक्षभगे वहान्तं नागं पाशं शगन्धान् प्रलयसुधवकं शङ्कुशं वामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं नमामि। नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्धकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। दक्षिणामूर्ति श्लोक फ्रॉम दक्षिणामूर्ति अष्टक। Sometimes this is included in Guru Sloka. I have included this Sivastuti. Maunam Vyakya Prakadita Parabrahma Tattvam Vivanam Varshishtande Vatatrushiganav Avratam Brahma Manishtaihi Acharlendram Karagarida Chinmudram Anandamurtim Swatmaramam Mutbadanam Dakshinamurti Mide.